येनाक्षरस मां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। नमः सर्वेभ्यः, सर्वेषां पाणिनीयव्याकरणवर्गं प्रति स्वागतम्। ह्यः उद्घोषणा ईपत्रं प्रेषितवती, इत्युक्ते अनौन्स्मेण्ट् ईमेल् मया प्रेषितं। तस्मिन् ईपत्रे करपत्रं लिङ्क् दत्तमस्ति। करपत्रस्य नाम अस्ति धातुगणाः। भवतां पार्श्वे सङ्गणकमस्ति चेत् साधु, सङ्गणकात् जालपुटम् उद्घाट्य सर्वे पश्यन्तु, नो चेत् कागदकरपत्रमस्ति चेत् अपि साधु एव, कागदकरपत्रं प्रिण्ट् कृत्वा द्रष्टुं शक्नुवन्ति भवन्तः सर्वे। इदं जालस्थानं वेब्सैट् स्वरूपमहोदयेन निर्मितं जालस्थानम्। अस्माकं पाठस्य नाम धातुगणपरिचयः। अत्र धातुगणपरिचयः इति अस्माकं प्रथमपाठः। अस्मिन् पाठे चत्वारः अध्यायाः सन्ति। प्रथमे अध्याये धातुगणाः के इति दत्तमस्ति। द्वितीये अध्याये धातुगणम् अनुसृत्य विकरणप्रत्ययाः कथं भिद्यन्ते इति लिखितमस्ति द्वितीये करपत्रे। तृतीये करपत्रे गुणः नाम किं, गुणस्य परिचयः भवति, इत्युक्ते गुणगणयोः मध्ये सम्बन्धः, तस्य चर्चा भवति। अन्तिमे अध्याये, चतुर्थे अध्याये, एतावत्पर्यन्तम् एतेषां त्रयाणाम् अध्यायानां पठनानन्तरं यत् ज्ञानम् अस्माभिः सम्पादितं, यत् ज्ञानम् अस्माभिः प्राप्तं, तेन आधारेण अथवा तत् ज्ञानम् अवलम्ब्य, तत् ज्ञानम् आधारीकृत्य वयं चतुर्थे अध्याये अभ्यासं कुर्मः। इत्युक्ते तादृशः क्रमः अस्ति। गते सप्ताहे एव धातुगणपरिचयः इति पाठः आरब्धः, किन्तु गते सप्ताहे किं चर्चितम् इत्यस्मिन् प्रसङ्गे सङ्क्षेपरूपेण किञ्चित् वदामि। तत्र पाणिनीयसूत्राणाम् आधारेण वयं सर्वे व्याकरणं पठन्तः स्मः। पाणिनिमहर्षिणा अष्टाध्यायी इति ग्रन्थः विरचितः। पाणिनिः संस्कृतभाषायाः सर्वेषां धातूनां श्रेणीकरणं कृतवान्। इत्युक्ते तत्र पाणिनिः सर्वेषां धातूनाम् आयोजनं कृतवान्। कथम् इत्युक्ते दशसु गणेषु सः सर्वान् धातून् स्थापितवान्। अत्र पाणिनेः लक्ष्यं किम् इत्युक्ते आहत्य उपद्विसहस्रं धातवः सन्ति, तेषां धातूनां श्रेणीकरणं कृतवान् सः। अस्मिन् व्याकरणवर्गे वयं सर्वे प्रथमतया सार्वधातुकलकाराणां चिन्तनं कुर्मः, तदनन्तरम् एव आर्धधातुकलकाराणां चिन्तनम् आरम्भः भवति। तत्र सार्वधातुकलकाराः के इत्युक्ते लट् लोट् लङ् विध्लिङ् एते चत्वारः लकाराः सार्वधातुकलकाराः। सार्वधातुकलकाराणां कर्तरीप्रयोगे इत्युक्ते आरम्भे कर्तरीप्रयोगे एतेषां चतुर्णां लकाराणां क्रियापदानां रूपसिद्धिः कथं भवति इत्युक्ते कर्तरीप्रयोगः इत्युक्ते आङ्ग्लभाषायाम् आक्टिव् वाय्स् इति वदामः। आङ्ग्लभाषया वदामि चेत् आक्टिव् वाय्स्। कर्तरिप्रयोगे सार्वधातुकलकारेषु क्रियापदानां रूपसिद्धिः कथं भवति इति प्रथमतया वयं ज्ञास्यामः, तदनन्तरम् अर्धधातुकलकाराणां चिन्तनं भवति। कर्तरिप्रयोगे लट्लकाररूपं क्रियापदं वयं पश्यामश्चेत् क्रियापदे त्रयः भागाः सन्ति इति अस्माभिः पठितं गते सप्ताहे। पठति इति क्रियापदं स्वीकुर्मः चेत् पठ् इति धातुः, आ इति विकरणप्रत्ययः, ति इति तिङ्प्रत्ययः, पठ् योगः आयोगः ति, पठाति इति रूपं सिद्ध्यति। तत्र पठ् धातुः अस्ति, धातुः अर्धं बोधयति। आ इति विकरणप्रत्ययः अस्ति, सः विकरणप्रत्ययः गणं सूचयति। विकरणप्रत्ययस्य भेदेन धातुः कस्मिन् गणे अस्ति इति वयं ज्ञास्यामः। प्रत्येकस्य गणे भिन्नविकरणप्रत्ययः अस्ति इति अपि अस्माभिः पठितं. क्रियापदस्य अन्ते ति इति तिङ्प्रत्ययः अस्ति. तिङ्प्रत्ययेन किम् अवगम्यते? तिङ्प्रत्ययेन लकारः कः इति अवगम्यते. भुवादिगणे शप् इति विकरणप्रत्ययः खत्तरि शप् इति सूत्रेण आयाति. तत्र शप् इति विकरणप्रत्ययः भुवादिगणे धातु तिङ्प्रत्यययोः मध्ये आयाति. शप् इति कथनेन तत्र शकारः अकारः पकारः इत्युक्ते त्रयः वर्णाः सन्ति. तत्र शकारपकारयोः अन्योपानन्तरम् आ एव अवशिष्यते. भुवादिगणे शप् इति विकरणप्रत्ययः मध्ये इति विषयः. अनन्तरं द्वितीयः गणः अस्ति अदादिगणः. अदादिगणे विकरणप्रत्ययस्य लुक् भवति. लुक् इत्युक्ते लोपः. इत्युक्ते विकरणप्रत्ययः एव नास्ति अदादिगणे. धातु तिङ्प्रत्यययोः मध्ये अदादिगणे विकरणप्रत्ययः न दृश्यते. उदाहरणार्थम् अस्ति इति क्रियापदं वयं दृष्टवन्तः. अस् धातुः अस्ति, ति इति तिङ्प्रत्ययः अस्ति, मध्ये विकरणप्रत्ययः नास्ति. इत्युक्ते तत्र उदाहरणार्थम् अस्ति इति क्रियापदं वयं परिशीलितवन्तः. तृतीयः गणः अस्ति जुहोत्यादिगणः. जुहोत्यादिगणे अपि विकरणप्रत्ययस्य लोपः भवति, किन्तु धातु तिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः न दृश्यते जुहोत्यादिगणे. विकरणप्रत्ययस्य लोपः भवति इति मया उक्तं. तस्य लोपस्य नाम श्लु. श्लु इति वदामः, इत्युक्ते श्लु इति भिन्नप्रकारकः लोपः. न केवलं लोपः, न भिन्नप्रकारकः लोपः. जुहोत्यादिगणे विकरणप्रत्ययस्य लोपः भवति, अपि च द्वित्वकार्यं भवति, इत्युक्ते धातोः उच्चारणं भवति. यथा ददाति, जुहोति, बिभेति इत्यादीनि क्रियापदानि वयं गते सप्ताहे परिशीलितवन्तः. चतुर्थः गणः अस्ति दिवादिगणः. दिवादिगणे दिवादिभ्यः शन् इति सूत्रेण धातु तिङ्प्रत्यययोः मध्ये शन् इति विकरणप्रत्ययः आयाति. शन् इति कथनेन शकारः, यकारः, नकारः त्रयः वर्णाः सन्ति. तत्र शकारनकारयोः अनुबन्धलोपानन्तरम् इत्युक्ते शकारस्य लोपः भवति, नकारस्य लोपः भवति, द्वयोः लोपानन्तरं य एव अवशिष्यते दिवादिगणे. दिवादिगणीयक्रियापदानि परिशीलयामश्चेत् तत्र चतुर्षु लकारेषु इत्युक्ते लट्लकारे, लोट्लकारे, लङ्लकारे, विधिलिङ्लकारे मध्ये या श्रूयते. तत्र धातुः दिव् धातुः अस्ति. दिव् योगः या योगः ति. तत्र दीव्यति रूपमस्ति, किन्तु तत्र दिव् दीव् कथं भवति इति अन्या वार्ता. तस्मिन् प्रसङ्गे इतोपि अग्रे गत्वा वयं पठिष्यामः. एतावता दिवादिगणे नश्यति, दीव्यति इत्यादीनि क्रियापदानि सन्ति. दिवादिगणे या इति मध्ये श्रूयते, इत्युक्ते विकरणप्रत्ययस्य आकृतिः. विकरणप्रत्ययः तु शन् अस्ति. शन् विकरणप्रत्ययस्य अवशिष्ट आकृतिः अस्ति या. या श्रूयते दिवादिगणे. पञ्चमः गणः अस्ति स्वादिगणः. स्वादिगणे स्वादिभ्यः श्नुः इति सूत्रेण मध्ये श्नु इति विकरणप्रत्ययः आयाति. तत्र श्नु इत्यस्मात् शकारस्य अनुबन्धलोपानन्तरं सः नु नो भवति. तदनन्तरं तत्र कानिचन कार्याणि सन्ति. तत्र स्वादिगणे क्रियापदं परिशीलयामश्चेत् सुनोति इति क्रियापदमस्ति. तत्र धातुः सु अस्ति, मध्ये विकरणप्रत्ययस्य रूपम् अवशिष्टरूपं नो, नु नो भवति, नो मध्ये आयाति. तदनन्तरम् अन्ते तिङ्प्रत्ययः अस्ति, एतावता सुनोति इति रूपं सिद्ध्यति. स्वादिगणे यथा क्रियापदं सुनोति इति अस्ति. इत्युक्ते पञ्चमगणपर्यन्तं वयं गते सप्ताहे एव पठितवन्तः. अहं चिन्तयामि भवन्तः सर्वे करपत्रं पठितवन्तः, पूर्णतया पठितवन्तः इति अहं चिन्तयामि. यदा अहं वदन्ती अस्मि तदा भवन्तः सर्वे तत् करपत्रं पश्यन्तु, तेन किञ्चित् अवगन्तुं शक्नुवन्ति. सूत्राणां प्रसङ्गे चिन्ता मास्तु, पुनः पुनः तत् सर्वम् आयास्यति, तत्र चिन्ता मास्तु. अधुना वयं किं कुर्मः, धातुगणाः इत्यस्मिन् करपत्रे अन्येषां गणानां प्रसङ्गे किं दत्तमस्ति इति एकवारम् अद्य परिशीलयामः. इत्युक्ते अन्येषां धातुगणानां प्रसङ्गे किं लिखितमस्ति, किं ज्ञातव्यम् इति अद्य परिशीलयामः. भवन्तः सर्वे तत् करपत्रं पुरतः स्थापयन्तु, अहं किञ्चित् वदामि. सर्वेषां गणानां प्रसङ्गे षष्ठः गणः अस्ति. षष्ठः गणः तुदादिगणः. साधारणतया पञ्चमः सप्तमः इति वदामः, किन्तु अत्र षष्ठः गणः इत्येव वक्तव्यम्. षष्ठः इति साधुरूपम्. अस्य गणस्य नाम तुदादिगणः. तुदादिगणे प्रथमसदस्यः तुद् धातुः अस्ति. तुद् इत्यादयः धातवः, इत्युक्ते अन्ये केचन धातवः अस्मिन् गणे सन्ति. तुद् इति लौकिकधातुः, तस्य रूपं मूलस्थित्याम् अथवा उपदेशावस्थायां तस्य रूपं तुद अस्ति. इत्युक्ते तत्र धातौ अपि इत्संज्ञकवर्णः अस्ति. इत्युक्ते धातौ इत्संज्ञकवर्णानां लोपानन्तरं लौकिकधातुः सिद्धः भवति. लौकिकधातुः तुद् अस्ति. तत्र तुदादिगणे तुदादिभ्यः शः इति सूत्रेण धातुतिङ् प्रत्यययोः मध्ये श इति विकरणप्रत्ययः आयाति. अत्र धातुः अस्ति तुद् धातुः. तुद् योगः आयोगः ति इति भवति. आ कथम् आयाति इत्युक्ते श इति विकरणप्रत्ययः मध्ये आयाति. श इत्यस्मात् इत् संज्ञकवर्णानां लोपानन्तरम् इत्युक्ते तत्र श इत्यस्मिन् शकारः अस्ति, अकारः अपि अस्ति. तालविशकारः लशक्वत धिते इति सूत्रेण तस्य लोपः भवति. तेन तत्र अकारः एव अवशिष्यते. लशक्वत धिते इति इत् संज्ञासूत्रम्. लशक्वतधिते इति सूत्रेण तालव्यशकारस्य इति संज्ञा भवति. तदनन्तरं तस्य लोपः इति एकं विधिसूत्रमस्ति. तेन सूत्रेण तालव्यशकारस्य लोपः भूत्वा मध्ये विकरणप्रत्ययस्य आकृतिः अकारः शिष्यते. अकारः तत्र अवशिष्यते. अधुना एकः प्रश्नः उदेति अस्माकं कृते. भुवादिगणे अपि शप् इत्यस्मात् अकारः अवशिष्यते, विकरणप्रत्ययस्य आकृतिः. तुदादिगणे अपि श इत्यस्मात् भुवादिगणे शप् अस्ति, तुदादिगणे श अस्ति. शप् इत्यस्मात् अकारः अवशिष्यते भुवादिगणे, तुदादिगणे श इत्यस्मात् आ अवशिष्यते अत्र अनुबन्धलोपानन्तरम्. किन्तु अत्र प्रश्नः कः इत्युक्ते, वयं किम् अधीतवन्तः पूर्वस्मिन् वर्गे? प्रत्येकं गणस्य विलक्षणधर्मः अस्ति, इत्युक्ते प्रत्येकं गणस्य लक्षणम् अस्ति इति वयं पठितवन्तः. यदि भुवादिगणे अपि आ दृश्यते विकरणप्रत्ययस्य आकृतिः, तुदादिगणे अपि तथा भवति चेत् तत्र कथम् एतादृशरीत्या भवति? गणस्य यत् लक्षणमस्ति तत् लक्षणं सर्वदा विलक्षणं भवेत्. इत्युक्ते तत् लक्षणम् अन्येषु गणेषु अथवा अन्यत्र कुत्रापि न लभ्यते इति अस्माभिः पठितम्. इत्युक्ते तत् लक्षणम् अन्येषु गणेषु अपि दृश्यते चेत् अतिव्याप्तिदोषः भवति इति विषयः. इत्युक्ते तथा मा भवतु इति पाणिनिः चिन्तितवान्. भुवादिगणे शप् इत्यस्मात् आ इति विकरणप्रत्ययस्य भागः अवशिष्यते, तुदादिगणे अपि आ एव अवशिष्यते चेत् अयं तुद् धातुः कस्मिन् गणे स्थापनीयः, कस्मिन् गणे अस्ति चेत् साधु भवति, अथवा कस्मिन् गणे तुद् धातुः अस्ति इति वयं कथम् अभिज्ञातुं शक्नुमः इति प्रश्नः तत्र अस्ति. इत्युक्ते तुद् धातुः भुवादिगणे स्थापनीयः वा नो चेत् तुदादिगणे स्थापनीयः वा इति प्रश्नः तत्र आयाति. तदर्थं गणद्वये भुवादिगणे तुदादिगणे मध्ये अकारः श्रूयते चेत् किमर्थं गणद्वयमस्ति, गणद्वयस्य स्थापनस्य कारणं किम् इति प्रश्नः उदेति. तत्र उत्तरं, तस्य उत्तरमपि अस्माभिः ज्ञातव्यं. भवन्तः तुदादिगणीयक्रियापदानि सर्वे पश्यन्तु, तत्र लट् लकाररूपाणि दत्तानि, प्रथमपुरुष एकवचनरूपाणि दत्तानि. तत्र चत्वारि क्रियापदानि सन्ति. एतेषां चतुर्णां क्रियापदानां परिशीलनं कृत्वा वयं कारणम् अवगन्तुं प्रयत्नं कुर्मः. तुदादिगणीयक्रियापदानि कानि कानि अत्र दत्तानि इत्युक्ते मिलति, क्षिपति, लिखति, कृषति, एतानि पदानि सन्ति. मिल् इति धातुः. मिल् योगः आयोगः ति, मिलति, क्षिप्योगः आयोगः ति क्षिपति, लिखयोगः आयोगः ति लिखति, कृष्योगः आयोगः ति कृषति. इत्युक्ते सर्वत्र मध्ये अकारः श्रूयते. भुवादिगणे अपि अकारः श्रूयते, तुदादिगणे अपि अकारः श्रूयते. गणद्वयं किमर्थम् इति प्रश्नः अस्ति. तत्र कारणद्वयमस्ति. पुनः एकवारम् उपरितनभागं पश्यन्तु. तत्र भुवादिगणं पश्यामश्चेत् भुवादिगणे खादति, पठति, क्रीडति, वदति इत्यादीनि क्रियापदानि सन्ति. खाद्योगः आयोगः ति खादति, पठ्ययोगः आयोगः ति पठति. एतानि क्रियापदानि भुवादिगणे सन्ति. इत्युक्ते भुवादिगणे अपि धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययस्य आकृतिः आदृश्यते. किन्तु भुवादिगणीय अन्यानि क्रियापदानि परिशीलयन्तु. अन्यानि क्रियापदानि इत्युक्ते सुच् धातुं स्वीकुर्वन्तु. सुच् धातुतः शोचति इति रूपं सिद्ध्यति. वृत् धातुतः वर्तते इति रूपं. जी धातुतः जयति. सृ धातुतः स्रवति. हृ धातुतः हरति. अत्र पश्यन्तु धातोः परिवर्तनम् अस्ति. अत्र धातोः परिवर्तनं दृश्यते. इत्युक्ते अत्र किञ्चित् विशिष्टं कार्यं भवति इति ऊहां कर्तुं शक्नुमः. इत्युक्ते अत्र धातोः किञ्चित् परिवर्तनं जातम् अस्ति. सुच् सोच् भवति, वृत् वर्त् भवति, जि जे भवति, सृ सर् भवति, हृ हर् भवति आरम्भे. इत्युक्ते तत्र धातोः किञ्चित् परिवर्तनं तत्र दृश्यते भुवादिगणे. इत्युक्ते अत्र इक् वर्णः धातोः अन्तिमवर्णः, इक् प्रत्याहारस्थवर्णः अस्ति चेत् तदा एतादृशं कार्यं भवति. इक् वर्णः इत्युक्ते धातुः, इगन्तधातुः. इक् प्रत्याहारस्थवर्णः धातोः अन्ते अस्ति चेत् इगन्तधातुः इति वदामः. इत्युक्ते धातुः इगन्तधातुः अस्ति चेदपि तत्र परिवर्तनं भवति. अथवा धातोः उपधायां ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः. इत्युक्ते उपधायां ह्रस्व इक् वर्णः अस्ति चेदपि एतादृशं परिवर्तनं भवति इति विषयः. किन्तु कुत्र भवति? भुवादिगणे भवति. भुवादिगणे धातोः परिवर्तनं दृश्यते. सुच् सोच्, वृत् वर्त् तथा भवति, जि जे भवति. तादृशं परिवर्तनं भुवादिगणे भवति. तस्य परिवर्तनस्य नाम अस्ति गुणकार्यं. गुणः गुणः भवति. किन्तु भवन्तः सर्वे किं चिन्तयन्ति? गुणसन्धिः इति चिन्तयन्ति. न, इत्युक्ते तत्र गुणसन्धिः नास्ति. गुणसन्धिः भिन्नः, गुणकार्यं भिन्नं. तस्मिन् प्रसङ्गे किञ्चित् अवधानं दातव्यं. भुवादिगणे शुच् धातुः अस्ति. शुच् धातुः शोच् भवति. तत्र गुणकार्यं भवति, अङ्गकार्यम् इति वदामः. अत्र कार्यमस्ति, सन्धिकार्यं नास्ति, अङ्गकार्यं भवति. भुवादिगणे अङ्गकार्यं केषुचित् धातुषु अङ्गकार्यं भवति. इत्युक्ते केषुचित् धातुषु एतादृशं परिवर्तनं भवति भुवादिगणे. इत्युक्ते धातोः अन्ते इ ऊरु वर्णाः. इत्युक्ते न केवलं ह्रस्व ईकारः, दीर्घ ईकारः अपि. ह्रस्व उकारः, दीर्घ ऊकारः. ह्रस्व ऋकारः, दीर्घ ऋकारः. एतेषु अन्यतमं वर्णः धातोः अन्ते अस्ति चेत् गुणकार्यं भवति. अथवा द्वितीयं कारणमस्ति, उपधायां ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः अस्ति चेदपि गुणकार्यं भवति. एतत् सर्वं भुवादिगणे भवति. धातुः इदुपदधातुः, उदुपदधातुः, रुदुपदधातुः अस्ति चेत् अथवा इगन्तधातुः अस्ति चेत् भुवादिगणे अङ्गकार्यं भवति. इत्युक्ते धातोः परिवर्तनं भवति इति मुख्यविषयः. किन्तु भुवादिगणस्य प्रसङ्गः अत्र किमर्थम् इत्युक्ते, अत्र षष्ठः गणः अस्ति तुदादिगणः. तुदादिगणे गुणकार्यं न कदापि भवति. इत्युक्ते भुवादिगणे एव धातौ आनुकूल्यमस्ति चेत् गुणकार्यं भवति. किन्तु तुदादिगणे गुणकार्यं न भवति. तदर्थमेव पश्यन्तु कानिचन क्रियापदानि. मिल् अस्ति, मिल् धातुतः मिलति, लिख् धातुतः लिखति, कृष् धातुतः कृषति इति भवति. अत्र गुणकार्यं नास्ति, धातोः परिवर्तनं नास्ति, मिल् मेलति न भवति, लिख् लेखति न भवति, कृष् कर्षति न भवति, इत्युक्ते अत्र अस्मिन् गणे गुणकार्यं न भवति, भवादिगणे गुणकार्यं भवति। इत्युक्ते यदि धातुः इगन्तधातुः अथवा इदुपदधातुः, उदुपदधातुः, ऋदुपदधातुः अस्ति चेत् तत्र अङ्गकार्यं गुणकार्यं भवति इति पाणिनिमहर्षिः परिशीलितवान्। एतादृशपरिवर्तनम् अस्ति भुवादिगणीयधातुषु, तादृशं परिशीलनं कृतवान्। एतत् सर्वं परिशील्य पाणिनिः किं कृतवान् इत्युक्ते, येषां येषां धातूनां प्रसङ्गे गुणकार्यं भवति तान् धातून् स्वीकृत्य भुवादिगणे स्थापितवान्, अन्यान् धातून् तुदादिगणे यत्र गुणकार्यं न भवति तत्र स्थापितवान्। इत्युक्ते यद्यपि द्वयोः गणयोः प्रसङ्गे मध्ये विकरणप्रत्ययस्य आकृतिः आ एव दृश्यते, तथापि भुवादिगणे गुणकार्यं भवति किन्तु तुदादिगणे गुणकार्यं न भवति। येषु येषु धातुषु गुणकार्यं न भवति, मध्ये आ इति विकरणप्रत्ययः अस्ति चेदपि तान् धातून् स्वीकृत्य अन्यस्मिन् गणे स्थापितवान्। तत्र अन्यस्मिन् गणे स्थापितवान् इत्युक्ते सः गणः यत्र गुणकार्यं न भवति सः गणः एव तुदादिगणः। तत् एकं कारणम् अस्ति। इत्युक्ते तत्र मिल् मिलति, लिख् लिखति, तुद् तुदति, यदि गुणकार्यं भवति चेत् मेलति भवति, गुणकार्यं भवति चेत् लेखति भवति, किन्तु तुदादिगणे केवलं तुदति, मिलति इत्यादीनि क्रियापदानि सन्ति, तत्र गुणकार्यं न भवति। तथा एव अत्र कृष् इति एकः धातुः अस्ति, कृष् धातोः रूपं कर्षति अस्ति, कृषति अपि अस्ति। कृष् धातुः भुवादिगणे अस्ति चेत् तस्य रूपं कर्षति, तत्र कृ इति ऋकारान्तधातुः अस्ति, इत्युक्ते इगन्तधातुः, इगन्तधातुः अस्ति इति कृत्वा भुवादिगणे गुणकार्यं भूत्वा तत्र कर्षति इति रूपं सिद्ध्यति। तत्र धातोः परिवर्तनं दृश्यते, गुणकार्यं दृश्यते तत्र, किन्तु अयमेव धातुः तुदादिगणे अस्ति चेत् तदा तस्य रूपं कृषति, इत्युक्ते धातोः रूपं यथावत् तिष्ठति, तत्र रूपं कृषति, धातुः तु कृष्, तदेव अत्र भेदः। इत्युक्ते अनयोः द्वयोः गणयोः मध्ये भेदः, गुणकार्यं भुवादिगणे भवति, तुदादिगणे गुणकार्यं न भवति। अनेन कारणेन एव केषाञ्चन धातूनाम् आयोजनं तुदादिगणे कृतवान् अत्र। अत्र भुवादिगणे सुच् धातुतः शोचति, मृत् धातुतः वर्तते, जी धातुतः जे भवति आरम्भे, तदनन्तरं जयति इति रूपं सिद्ध्यति। तत् प्रथमं कारणं। द्वितीयं कारणं, मध्ये विकरणप्रत्ययस्य आकृतिः अकारः अस्ति चेदपि तत्र द्वितीयं कारणमस्ति, शत्रन्तरूपाणां प्रसङ्गे, इत्युक्ते भवन्तः सर्वे जानन्ति इति मन्ये, स्त्रीलिङ्गे शत्रन्तरूपाणि पश्यामश्चेत्, भुवादिगणे स्त्रीलिङ्गे शत्रन्तरूपाणि परिशीलयामश्चेत् तत्र स्त्रीलिङ्गे नुमागमः भवति, सः नुमागमः भुवादिगणे नित्यरूपेण भवति, किन्तु तुदादिगणे स्त्रीलिङ्गरूपेषु शत्रन्तरूपेषु, स्त्रीलिङ्गशत्रन्तरूपेषु तुदादिगणे नुमागमः विकल्पेन भवति इति तादृशं परिशीलनमपि पाणिनिः कृतवान्। तदर्थमेव सः केषाञ्चन धातूनाम् आयोजनम् अन्यस्मिन् गणे कृतवान्। शत्रन्तरूपाणां प्रसङ्गे आगामिसप्ताहे किञ्चित् वदिष्यामि, अधुना अत्र कारणद्वयमस्ति, इत्युक्ते भुवादिगणे तुदादिगणे मध्ये विकरणप्रत्ययस्य आकृतिः अकारः श्रूयते चेदपि तत्र भेदः अस्ति, गुणकार्यं भुवादिगणे भवति, तुदादिगणे न भवति, अपि च शत्रन्तरूपाणां परिशीलनम् अपि सः कृतवान्, तदनन्तरमेव सः एतान् धातून् तुदादिगणे स्थापितवान् इति तुदादिगणस्य प्रसङ्गे किञ्चित् अवगमनम्। अग्रिमः गणः अस्ति रुधादिगणः, रुधादिगणः सप्तमः गणः, प्रथमधातुः प्रथमसदस्यः अस्ति रुद्ध धातुः, रुद्ध धातोः रूपं रुणद्धि, तस्मिन् गणे रुद्ध इत्यादयः धातवः सन्ति, अन्यधातवः अपि सन्ति, किन्तु प्रथमधातुः अस्ति रुद्. अस्मिन् गणे किं भवति? अस्मिन् गणे विकरणप्रत्ययः श्नम् इति विकरणप्रत्ययः आयाति. इत्युक्ते अहं पूर्वमेव उक्तवती प्रत्येकस्मिन् गणे भिन्नविकरणप्रत्ययः अस्ति इति उक्तवती. अस्मिन् गणे श्नम् इति विकरणप्रत्ययः रुधादिभ्यः श्नम् इति सूत्रेण श्नम् आयाति. श्नम् इति कथनेन तत्र किं भवति? श्नम् इत्यस्मिन् अनुबन्धवर्णाः सन्ति. इत्युक्ते मकारः हलन्त्यम् इत्यनेन अपगच्छति, अनन्तरं शकारः लशक्वतधिते इति सूत्रेण अपगच्छति. शकार मकारयोः अनुबन्धलोपानन्तरं तत्र न एव अवशिष्यते. अत्र न इति कथनेन नकारः अकारः वर्णद्वयमस्ति. रुधादिगणे श्नम् इति विकरणप्रत्ययः मध्ये आयाति. इत्युक्ते अत्र विकरणप्रत्ययस्य आकृतिः न, विकरणप्रत्ययस्य अवशिष्टभागः न अस्ति. अत्र इतोपि किञ्चित् परिशीलयामश्चेत् रुधादिगणे किञ्चित् वैशिष्ट्यमस्ति. वैशिष्ट्यं किम् इत्युक्ते, एतावत्पर्यन्तं वयं विकरणप्रत्ययः धातुतिङ्प्रत्यययोः मध्ये आयाति इति वयं परिशीलितवन्तः, किन्तु अस्मिन् गणे धातुतिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः न आयाति. अत्र किं भवति इत्युक्ते, धातोः मध्ये एव विकरणप्रत्ययः आगत्य तिष्ठति, उपविशति अत्र मध्ये. इत्युक्ते भुवादिगणे, दिवादिगणे, अन्येषु गणेषु एतावत्पर्यन्तं विकरणप्रत्ययः धातु तिङ्प्रत्यययोः मध्ये आगत्य तिष्ठति, किन्तु अत्र अस्मिन् गणे धातोः मध्ये एव उपविशति. कथम् इत्युक्ते, अत्र उदाहरणं स्वीकुर्मः चेत्, छिद् इति एकः धातुः अस्ति. छिद् धातोः रूपं छिनत्ति. अस्मिन् गणे विकरणप्रत्ययः श्नम्, श्नम् इत्यस्मात् न इति विकरणप्रत्ययस्य आकृतिः, तत्र अवशिष्टभागः तत्र लभ्यते. तत्र छिद् इति धातुः अस्ति. छिद् इति धातुतः प्रथमतया विकरणप्रत्ययः मध्ये, धातोः मध्ये आयाति इति कृत्वा तत्र छिनद्, छिनद् इति रूपम् आयाति. छिद् इत्यस्मिन् नकारः मध्ये उपविश्यति, तेन छिनद् इति अङ्गं सिद्ध्यति. छिनद् योगः अन्ते, वयं यथावत् पूर्वं ति इति तिङ्प्रत्ययं योजयामः, छिनद् योगः ति, छिनत्ति इति रूपं भवति. तत्र कानिचन सन्धिकार्याणि अपि भवन्ति. छिनत्ति इति क्रियापदं परिशीलयामश्चेत्, विकरणप्रत्ययः धातोः मध्ये आगत्य उपविशति. इत्युक्ते तत्र इतोपि स्पष्टतया ज्ञातुमिच्छामश्चेत्, धातोः अन्तिमस्वरस्य अनन्तरं न आगत्य उपविशति. धातोः अन्तिमस्वरस्य अनन्तरम् आगत्य न इति विकरणप्रत्ययस्य भागः आगत्य तिष्ठति. छिद् इति धातोः अर्थः द्वैधीकरणम् इति अर्थः अस्ति. तत्र छिनत्ति इति क्रियापदं परिशीलयामश्चेत्, तकारद्वयम् अन्ते लेखनीयम्. छिनद् इति प्रथमतया छिद् छिनद् भवति अङ्गम्, छिनद् योगः ति. तत्र दकारस्य तकारः कथं भवति इति परिशीलयामश्चेत्, तत्र एकं सन्धिकार्यं भवति. इत्युक्ते खरिच इति एकं सूत्रमस्ति, तेन सूत्रेण छिनद् इत्यस्मिन् अन्ते स्थितस्य दकारस्य तकारादेशः भवति इति कृत्वा छिनत् योगः ति, छिनत्ति इति रूपं सिद्ध्यति. तत्र तकारद्वयं योजितमस्ति. इत्युक्ते एतावता किम् अवगन्तव्यम् इत्युक्ते, छिद् इत्यस्मिन् धातोः मध्ये विकरणप्रत्ययः आगत्य तिष्ठति इति मुख्यविषयः. तत्र यदि वयम् अन्यान् धातून् परिशीलयामश्चेत्, पश्यन्तु, द्वितीयः धातुः अस्ति तृद् धातुः. तृद् धातुतः तृणत्ति, भुज् धातुतः भुनक्ति. किन्तु भुज् धातुः उभयपदी धातुः, तदर्थं तस्य रूपद्वयमस्ति. परस्मैपदिरूपं भुनक्ति, आत्मनेपदिरूपं भुङ्क्ते. तृद् धातुतः तृणत्ति, भुज् धातुतः भुनति अथवा भुङ्क्ते, छिद् धातुतः छिनत्ति, भिद् धातुतः भिनत्ति, युज् धातुतः युनक्ति इत्यादीनि क्रियापदानि अस्मिन् गणे सन्ति, रुधादिगणे सन्ति. अत्र भुनक्ति इति पश्यामश्चेत् धातुः भुज् धातुः अस्ति. भुज् धातुतः प्रथमतया व्यकरणप्रत्ययस्य अवशिष्टभागः मध्ये आयाति इति कृत्वा भुनज् इति अङ्गं भवति. भुनज् योगः ति, कानिचन हल्सन्धिकार्याणि भूत्वा भुनक्ति इति रूपं सिद्ध्यति. तथा एव युज् धातुः प्रथमतया युनज् भवति. इत्युक्ते मध्ये नकारः श्रूयते, धातोः मध्ये विकरणप्रत्ययात् आगतः नकारः मध्ये श्रूयते. युनज् योगः ति युनक्ति इति रूपमस्ति. किन्तु युज् धातुः अपि उभयपदी धातुः, अतः युनक्ति युङ्क्ते इति रूपाणि सिद्ध्यन्ति. अत्रापि युनज् युनक् कथं, जकारस्य स्थाने ककारः कथम् आयाति इति प्रश्नः उदेति. तत्रापि कानिचन सन्धिसूत्राणि सन्ति. एतावता हल्सन्धिकार्याणि वयं जानीमश्चेत् अत्र इतोपि किं किं भवति इति स्पष्टतया अवगन्तुं शक्नुमः. किन्तु एतत् सर्वम् अग्रे विस्तरेण पठामः. अन्ततो गत्वा रुधादिगणे किं भवति इति परिशीलयामश्चेत् रुधादिगणे धातोः मध्ये नकारः आगत्य तिष्ठति, न तु धातुतिङ्प्रत्ययोः मध्ये इति मुख्यविषयः इति रुधादिगणस्य प्रसङ्गे किञ्चित् चिन्तनमस्ति. अपि च अष्टमः गणः तनादिगणः, अत्रापि भिन्नविकरणप्रत्ययः अस्ति. उ इति विकरणप्रत्ययः अस्ति. तनादिकृण्भ्यः उः इति एकं सूत्रमस्ति. तनादिकृण्भ्यः उः इति एकं सूत्रं, तेन सूत्रेण तनादिगणे उ इति विकरणप्रत्ययः मध्ये आयाति. अत्र तनादिगणे प्रथमसदस्यः तन् धातुः, तन् इत्यादयः धातवः अस्मिन् गणे सन्ति. प्रथमसदस्यः तन् धातुः अस्मिन् गणे उ इति विकरणप्रत्ययः मध्ये श्रूयते. इत्युक्ते अस्मिन् गणे धातुतिङ्प्रत्यययोः मध्ये उ इति श्रूयते. किन्तु सः उ ओ भवति, तत्सर्वम् अग्रे आयास्यति. अत्र क्रियापदानि एकवारं परिशीलयन्तु. करोति, तनोति, सनोति इत्यादीनि क्रियापदानि, तनादिगणीयक्रियापदानि अत्र दत्तानि. कृ धातुतः करोति, तृण् धातुतः तनोति, सन् धातुतः सनोति इत्यादीनि क्रियापदानि निर्मितानि. तृण् धातुतः तनोति इति क्रियापदमस्ति, तस्य अर्थः खादति इति अर्थः. तनोति इत्युक्ते खादति, सनोति इत्युक्ते ददाति इति अर्थः. अस्मिन् गणे अपि ज्ञातव्यः अंशः अस्ति. एकः विषयः सावधानेन ज्ञातव्यः विषयः अत्र अस्ति तनादिगणस्य प्रसङ्गे. तत् किमित्युक्ते, वयं पूर्वमेव स्वादिगणस्य प्रसङ्गे किञ्चित् ज्ञातवन्तः खलु. तत्र स्वादिगणे नो अस्ति, आरम्भे नु आयाति, स्वादिगणे श्नु इति विकरणप्रत्ययस्य अवशिष्टभागः. इत्युक्ते विकरणप्रत्ययस्य आकृतिः स्वादिगणे नु अस्ति, सः नु नो भवति इति वयं पठितवन्तः. अस्मिन् गणे ओ अस्ति, विकरणप्रत्ययः उ अस्ति, उ ओ भवति. इत्युक्ते स्वादिगणीयक्रियापदानि परिशीलयामश्चेत्, उदाहरणार्थम् आप्नोति, शक्नोति इत्यादीनि क्रियापदानि वयं परिशीलयामश्चेत् तत्रापि नो श्रूयते. अत्र तनोति, सनोति इत्यादिषु अपि नो श्रूयते. अत्र प्रश्नः उदेति, द्वयोः गणयोः मध्ये नो एव श्रूयते, श्रूयते चेत् अत्र गणद्वयं किमर्थम् इति प्रश्नः उदेति. किन्तु अत्र सावधानेन परिशीलनीयः अंशः एकः अस्ति. तत् किमित्युक्ते, स्वादिगणे विकरणप्रत्ययस्य अवशिष्टभागः, विकरणप्रत्ययस्य आकृतिः नो अस्ति. किन्तु अस्मिन् गणे ओ श्रूयते, न तु नो. तत्र भेदः अस्ति. अत्र धातुः तन् अस्ति, तन् योगः ओ योगः ति, तनोति इति भवति. इत्युक्ते स्वादिगणे नो श्रूयते, किन्तु तनादिगणे वो श्रूयते. इत्युक्ते तनादिगणे अत्र नो इति यत् श्रूयते, सः अत्र नकारः धातुतः आगतः नकारः, न तु विकरणप्रत्ययात् आगतः नकारः. किन्तु तनादिगणे तनोति इत्यस्मिन् क्रियापदे यः नकारः श्रूयते सः नकारः धातुतः आगतः न तु विकरणप्रत्ययात् आगतः नकारः. विकरणप्रत्ययस्य नकारः नास्ति तनादिगणे. इत्युक्ते तनादिगणे तन्निति धातुः अस्ति, उ इति विकरणप्रत्ययः अस्ति, उ इति विकरणप्रत्ययः ओ भवति, तदर्थमेव तनोति इति क्रियापदं सिद्ध्यति. अत्र ज्ञातव्यः अंशः कः इत्युक्ते स्वादिगणे विकरणप्रत्ययात् आगतः नो इति दृश्यते, किन्तु तनादिगणं पश्यामश्चेत् धातोः नकारः विकरणप्रत्ययस्य नकारः न दृश्यते. तत्र क्रियापदानि एकवारं पश्यन्तु, तनोति, सनोति इत्यादिषु नकारः श्रूयते, सः नकारः धातुतः आगतः नकारः इति अत्र अवगन्तव्यः विषयः. इत्युक्ते स्वादिगणे अपि नो श्रूयते, तनादिगणे अपि तनोति, सनोति इत्यादिषु क्रियापदेषु नो श्रूयते चेदपि केवलं नकारः धातुतः आगतः, ओकारः विकरणप्रत्ययात् आगतः. इत्युक्ते तत्र द्वयोः स्वादिगणः तनादिगणः द्वयोः गणयोः मध्ये भेदः कः क्रियापदेषु इति परिशीलयामश्चेत् तत्र सः नकारः धातुतः आगतः नकारः वा नो चेत् विकरणप्रत्ययात् आगतः नकारः वा इति द्रष्टव्यः. तदानीम् एव सः धातुः कस्मिन् गणे अस्ति इति वयम् अवगन्तुं शक्नुमः. इत्युक्ते प्रथमतया तस्मिन् क्रियापदे धातुः कः, विकरणप्रत्ययः कः, विकरणप्रत्ययात् आगतः अवशिष्टभागः, एतत् सर्वम् अस्माभिः ज्ञातव्यम्. तदानीम् एव सः धातुः कस्मिन् गणे अस्ति इति वयम् अवगन्तुं शक्नुमः. तदर्थं वयं सर्वे मिलित्वा एतत् सर्वम् इतोपि स्पष्टतया अवगन्तुं वयं सर्वे मिलित्वा अभ्यासं कुर्मः. एतावत्पर्यन्तं वयं तनादिगणस्य प्रसङ्गे किञ्चित् ज्ञातवन्तः. अधुना वयं नवमः गणः क्रियादिगणः तस्मिन् प्रसङ्गे अवगन्तुं प्रयत्नं कुर्मः. क्रियादिगणे प्रथमधातुः अस्ति क्री धातुः. क्री इत्यादयः धातवः अस्मिन् गणे सन्ति. अत्र क्री धातोः रूपं क्रीणाति. अस्मिन् गणे किं भवति, अस्मिन् गणे क्रियादिभ्यः श्न इति एकं सूत्रमस्ति. तेन सूत्रेण अस्मिन् गणे श्न इति मध्ये विकरणप्रत्ययः आयाति. श्न इति कथनेन तत्र लषक्वतधिते इति सूत्रेण शकारस्य अनुबन्धलोपानन्तरं न एव अवशिष्यते. न इत्यस्मिन् नकारः अस्ति, आकारः अस्ति, इत्युक्ते वर्णद्वयम् अस्ति इति स्मर्तव्यम्. श्न इति अनुबन्धलोपानन्तरं न एव अवशिष्यते. अस्मिन् गणे ग्रहधातुः अस्ति. ग्रहधातोः रूपं किं, लट्लकार प्रथमपुरुष एकवचनरूपं गृह्णाति. ग्रहधातोः रूपं गृह्णाति. ग्रहधातुः क्रियादिगणे अस्ति. ग्रह इति धातुः अस्ति. ग्रहधातुतः गृह गृह्णाति इति अहम् उच्चारितवती. ग्रहधातुतः गृह कथं भवति, तत्रापि कारणमस्ति. इत्युक्ते धातुः ग्रह अस्ति किन्तु रूपं लट्लकाररूपं गृह्णाति. तत्सर्वं कथं भवति इति परिशीलयामश्चेत् तत्र एकं विशिष्टं कार्यमस्ति. तत् कार्यं सम्प्रसारणम् इति एकं कार्यमस्ति. एकं सूत्रमस्ति तस्मिन् प्रसङ्गे, संज्ञासूत्रम्, इग्यणः सम्प्रसारणम्. इत्युक्ते तत्र सम्प्रसारणकार्यम् इति एकं विशिष्टं कार्यं. तेन कार्येण ग्रह इत्यस्मिन् पश्यन्तु, ग्रह इत्यस्मिन् गकारः, रेफः, अकारः, त्रयः वर्णाः सन्ति ग्र इत्यस्मिन्. किन्तु सम्प्रसारणं भूत्वा किं भवति, गकारः अपि च ऋकारः. इत्युक्ते ऋकारयुक्तं रूपं रेफस्य स्थाने ऋकारः आयाति. तत्र धातोः परिवर्तनं भवति. परिवर्तनं कीदृशं परिवर्तनम् इत्युक्ते सम्प्रसारणकार्यं भवति. ग्रहधातुतः गृह आयाति. तस्मिन् प्रसङ्गे कानिचन सूत्राणि सन्ति, इज्ञानः सम्प्रसारणं, सम्प्रसारणाच्च ग्रहिज्या वै व्यधि वष्टि विचति पृच्छति पृच्छति भृज्यतीनाम् इत्यादीनि सूत्राणि सन्ति. एतेषां सूत्राणां द्वारा ग्रहधातुतः गृह्णाति इति रूपं सिद्ध्यति. इत्युक्ते ग्रह इति रेफयुक्तरूपं गृह् इति ऋकारसहितं रूपं तत्र सम्प्रसारणकार्यं भवति. गृह्णाति इति पदनिर्माणप्रसङ्गे तादृशं कार्यं भवति. अत्र विकरणप्रत्ययः क्रियादिभ्यः श्न इति सूत्रेण श्न इति आयाति इति अहम् उक्तवती. तत्र न एव विकरणप्रत्ययस्य आकृतिः अन्ते अवशिष्यते इति अत्र मुख्यविषयः. अहं सम्प्रसारणकार्यम् इति उक्तवती खलु, अत्र सम्प्रसारणकार्यं सर्वेषु रूपेषु भवति वा इति चिन्तयामश्चेत् सर्वेषु रूपेषु न भवति. तत्र निमित्तम् आवश्यकम्. अत्र साधारणतया ग्रहधातुतः गृह्णाति इति लट्लकाररूपं तिङन्तपदं वयं ज्ञातवन्तः. ग्रहधातोः रूपमेव कृदन्तपदम्, अन्यत् कृदन्तपदमस्ति अथवा ल्युडन्तपदं. विशेषतया वक्तुमिच्छामि चेत् ल्युट् प्रत्ययान्तरूपं ग्रहणम् इति पदमस्ति. ग्रहधातुतः निर्मितं कृदन्तपदम् अथवा ल्युडन्तपदं ग्रहणं. पश्यन्तु, ग्रहणम् इति पदं परिशीलयामश्चेत् तत्र सम्प्रसारणं न भवति. इत्युक्ते सम्प्रसारणं भवितुं तत्र निमित्तानि आवश्यकानि. तत्सर्वम् अग्रे वयं पठिष्यामः. ग्रहधातोः तिङन्तरूपमेव गृह्णाति, ग्रहधातोः कृदन्तरूपं. भवन्तः सर्वे जानन्ति एव, धातुतः तिङ् प्रत्ययस्य योजनेन तिङन्तपदं, धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. ग्रहणम् इति पदं कृदन्तपदं, तत्र सम्प्रसारणं न भवति. किन्तु गृह्णाति इति पदस्य निर्माणावसरे सम्प्रसारणं भवति. सम्प्रसारणं भूत्वा ग्रह् धातुतः गृह् इति रूपं सिद्ध्यति. तत्र णत्वकार्यमपि भवति. रेफः अस्ति चेत् णत्वकार्यं भवति, अथवा ऋकारः अस्ति चेदपि ऋकारस्य णत्वं वाच्यम् इति वार्तिकेन णत्वं भवति. तदर्थमेव यद्यपि विकरणप्रत्ययस्य आकृतिः न अस्ति, किन्तु पदं पश्यामश्चेत् गृह्णाति. मूर्धन्यणकारः श्रूयते खलु, तत्र मूर्धन्यणकारः ऋकारस्य कारणेन भवति. इत्युक्ते तत्र णत्वस्य कृते निमित्तमस्ति इति कृत्वा गृह्णाति इति रूपं सिद्ध्यति. अस्मिन् गणे एव अन्यः धातुः अस्ति, ज्ञाधातुः. ज्ञाधातोः रूपं वयं सर्वे जानीमः, जानाति. किन्तु धातुः ज्ञाधातुः. अत्र अस्मिन् करपत्रे द्वितीयः धातुः ज्ञाधातुः. ज्ञाधातुतः जानाति इति रूपं सिद्ध्यति. तत्र किं भवति इति परिशीलयामश्चेत् तत्र ज्ञाधातोः प्रसङ्गे एकं विशिष्टं कार्यं भवति. ज्ञाधातोः प्रसङ्गे ज्ञाजनोर्जा इति एकं विशिष्टसूत्रमस्ति. तेन सूत्रेण ज्ञास्थाने जा इति आदेशः भवति इति कृत्वा ज्ञास्थाने जा दीर्घ आकारः श्रूयते. तत्र जा इति आदेशः भवति. जायोगः नायोगः. न कुतः आगतः? श्ना इति विकरणप्रत्ययात् आगतः न. जायोगः नायोगः ति जानाति इति रूपं सिद्ध्यते. इत्युक्ते अत्र ज्ञाधातोः प्रसङ्गे जानाति इति पदनिर्माणावसरे ज्ञाजनोर्जा इति एकं सूत्रं, विशिष्टं सूत्रं कार्यं करोति. अन्यत् क्रियापदम् अश्नाति. अश्नाति इत्यस्मिन् अश् धातुः, न इति विकरणप्रत्ययस्य आकृतिः, अन्ते ति इति तिङ्प्रत्ययः, तेन अश्नाति इति रूपमस्ति. तथा एव वृधातुः. वृधातुः तत्र वृधातोः अन्ते ऋकारः श्रूयते खलु, तदर्थम् अत्र णत्वं भवति इति कृत्वा वृयोगः न, न इति विकरणप्रत्ययात् आगतः, ति इति तिङ्प्रत्ययः, तेन वृणाति. अत्र णत्वं भवति. वृणाति इति लट्लकार प्रथमपुरुष एकवचनरूपमस्ति. तथा एव सि, सि इति धातुः अस्ति. सि योगः नायोगः ति सिनाति. तथा एव अत्र अन्यः धातुः अस्ति, बन्ध् धातुः. बन्ध् धातोः रूपं बध्नाति इति भवति. धातुः बन्ध् अस्ति, किन्तु बध्नाति इति क्रियापदं श्रूयते. किमर्थं तथा भवति, अत्र कीदृशं कार्यं भवति इति चिन्तयामश्चेत् प्रथमतया बन्ध् धातुतः बद्ध् इति रूपं सिद्ध्यते। तत्रापि एकं विशिष्टं सूत्रमस्ति, अनिदितां हल उपधाया क्निति इति एकं सूत्रमस्ति। तेन सूत्रेण इत्युक्ते बन्धधातुः इदित् धातुः नास्ति, इत्युक्ते बन्धधातौ इत् संज्ञकः इकारः नास्ति, धातौ एव धातुः इदित् धातुः नास्ति, अनिदित् धातुः। धातुः अनिदित् धातुः अस्ति चेत् उपधायां स्थितस्य नकारस्य लोपः भवति इति इदं सूत्रं वदति। कदा भवति, अत्र निमित्तं किम् इत्युक्ते कितिनिति प्रत्यये परे इति निमित्तमस्ति। कितिनिति प्रत्ययः इति इत्युक्ते किम्? अस्मिन् गणे श्ना इति विकरणप्रत्ययः आयाति। श्ना इति प्रत्ययः षित् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण षित् भवति, अपि च अपित् प्रत्ययः, श्ना इति अपित् प्रत्ययः, अपित् प्रत्ययः अस्ति इति कृत्वा तत्र एकं सूत्रमस्ति, सार्वधातुकम् अपित् इति सूत्रेण णित्वत् भूत्वा श्ना इति विकरणप्रत्ययः णित्वत् भवति इति कृत्वा अनिदितां हलोपधाया क्निति इति सूत्रेण, विशिष्टसूत्रेण बन्धधातुतः मध्ये स्थितस्य उपधायां स्थितस्य नकारस्य लोपः भूत्वा बद्ध भवति। तदनन्तरं विकरणप्रत्ययात् आगतः ना इति योजयामः, तदनन्तरं ति योजयामः, तेन बद्धयोगः ना योगः ति, बध्नाति इति रूपं। किन्तु ल्युडन्तरूपं पश्यामश्चेत् तत्र इदं सूत्रं कार्यं न करोति। किमर्थं चेत् तत्र पश्यन्तु, बन्धनं, बन्धनम् इति कृदन्तपदं वयं जानीमः, तत्र नकारस्य लोपः न भवति, इत्युक्ते तत्र निमित्तानि न पूरितानि, तत्र निमित्तं नास्ति इति कृत्वा तत्र नकारलोपः, बन्धनम् इत्यस्मिन् पदे नकारलोपः न भवति, यद्यपि बन्धनम् इति पदं बन्धधातुतः आगतः, बन्धधातुतः आगतं तिङन्तपदं, तिङन्तपदं बध्नाति, प्रथमपुरुष एकवचनरूपमस्ति। एतत् सर्वम् अस्मिन् गणे आयाति। इत्युक्ते एतावता बन्धधातौ मध्ये स्थितस्य नकारस्य लोपः भवति, अनिदितां हल उपधाया क्निति इति सूत्रेण कार्यं भवति। इतोपि अस्मिन् गणे बहूनि अन्यानि कार्याणि अपि भवन्ति। उदाहरणार्थम् अत्र दत्तानि कानिचन क्रियापदानि एकवारं पश्यन्तु। ग्रहधातुतः गृह्णाति, ज्ञाधातुतः जानाति, अश् धातुतः अश्नाति, बन्धधातुतः बध्नाति इत्यादीनि क्रियापदानि निर्मितानि, इत्यादीनि क्रियापदानि अस्मिन् गणे सन्ति। अत्र विकरणप्रत्ययः श्ना अस्ति, श्ना इत्यस्मात् लशक्वतधिते इति सूत्रेण तालव्यशकारस्य लोपः भूत्वा विकरणप्रत्ययस्य आकृतिः ना अस्ति। ना इत्युक्ते नकारः दीर्घ आकारः, वर्णद्वयमस्ति तत्र। इत्युक्ते अस्मिन् गणे कानिचन विशिष्टकार्याणि भवन्ति। आहत्य विकरणप्रत्ययः तु श्न इति मुख्यविषयः। यदा वयं तस्मिन् गणे धातूनां प्रसङ्गे चर्चयिष्यामः तथा इतोपि अवगन्तुं शक्ष्यामः। अधुना अन्तिमः गणः अस्ति, दशमः गणः चुरादिगणः। चुरादिगणे किं भवति इत्युक्ते चुरादिगणीयप्रथमसदस्यः चुर्धातुः। चुर्धातुतः चोरयति इति क्रियापदम् आयाति। लट् लकार प्रथमपुरुष एकवचनरूपं चोरयति। अस्मिन् गणे अपि विशिष्टकार्याणि सन्ति। अस्मिन् गणे अपि भुवादिगणे शप् इति विकरणप्रत्ययः, कर्तरि शप् इति सूत्रेण भुवादिगणे शप् इति विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति। तथा एव चुरादिगणे अपि धातु तिङ् प्रत्ययोः मध्ये शप् इति विकरणप्रत्ययः आयाति। अस्मिन् गणे अपि यथा भुवादिगणे वयं पठितवन्तः, भुवादिगणे कर्तरि शप् इति सूत्रेण शप् इति विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति। तथा एव अस्मिन् गणे अपि चुरादिगणे अपि शप् इति धातुविकरणप्रत्ययोः मध्ये आयाति। किन्तु चुरादिगणे एकम् अन्यत् विशिष्टं कार्यमस्ति। तत् किम् इत्युक्ते चुरादिगणे णिच् इति सर्वदा विधीयते इति मुख्यविषयः। णिच् इत्युक्ते किं? निच् इति एकः सनन्तप्रत्ययः, द्वादश सनादिप्रत्ययाः सन्ति, तेषु अन्यतमः प्रत्ययः एव निच् प्रत्ययः. निच् इत्यस्मात् निच् इति कथनेन तत्र नकारः अस्ति, इकारः अस्ति, चकारः अस्ति, इकारः चकारः, निच् निच् इति कथनेन नकारः इकारः चकारः त्रयः वर्णाः सन्ति. विशेषसूत्राणाम् आधारेण तत्र चुटु इति एकं सूत्रमस्ति, हलन्त्यम् इति अन्यत् सूत्रमस्ति, ताभ्यां सूत्राभ्यां णकारचकारयोः अनुबन्धलोपानन्तरं तत्र ई ह्रस्व इकारः एव तत्र अवशिष्यते इति कृत्वा, इत्युक्ते चुरादिगणे आरम्भे णिच् विधीयते, धातुः चुर् अस्ति, तदनन्तरं णिच् विधीयते. णिच् विधीयते चेत् णिच् इत्यस्मात् केवलं ह्रस्व इकारः तत्र अवशिष्यते, चुर्योगः ई भवति. तदनन्तरं शप् विधीयते, शप् विधीयते चेत् शप् इत्यस्मात् शकारपकारयोः अनुबन्धलोपानन्तरं तत्र अकारः एव अवशिष्यते. अन्ते ति इति तिङ्प्रत्ययं योजयामः. पश्यन्तु, रूपं पश्यन्तु, चुर् योगः ई योगः आयोगः ति. पुनः वदामि, चुर् इति धातुः, ई इति निच् प्रत्ययात् आगतः ह्रस्व इकारः ई मध्ये, चुर् योगः ई. तदा किं भवति, कानिचन कार्याणि भवन्ति, तेन चोरि इति नूतनधातुः आयाति. इत्युक्ते निज् निच् प्रत्ययस्य योजनेन निच् इति प्रेरणार्थकप्रत्ययः, किन्तु सर्वेषु गणेषु केवलं प्रेरणार्थे एव निच् विधीयते, किन्तु चुरादिगणे स्वार्थे अपि निच् विधीयते इति कृत्वा चुर्धातुः अस्ति, निच् इत्यस्मात् इकारः तत्र आगतः, शप् सर्वदा विधीयते कर्तरि शप् इत्यनेन, कर्तर्धकसार्वधातुकप्रत्यये परे कर्तरि शप् इति सूत्रेण शप् आयाति यथा भुवादिगणे भवति. अत्र अवगन्तव्यः विषयः कः इत्युक्ते, सर्वेषु गणेषु प्रथमतया शप् आयाति, तदनन्तरं केषुचित् गणेषु शपं प्रबाध्य अन्ये विकरणप्रत्ययाः भिन्नभिन्नसूत्राणां द्वारा अन्ये विकरणप्रत्ययाः आयान्ति. इत्युक्ते औत्सर्गिकरूपेण, साधारणतया औत्सर्गिकरूपेण सर्वदा शपायति, तदनन्तरं शपं प्रबाध्य अन्ये विकरणप्रत्ययाः भिन्नभिन्नगणेषु आयान्ति इति अवगन्तव्यः विषयः. किन्तु अत्र चुरादिगणे शप् विधीयते, प्रथमतया णिच् विधीयते, तदनन्तरं शप् विधीयते, णिच् इत्यस्मात् इकारः आगतः, शप् इत्यस्मात् अकारः आगतः, अन्ते ति इति तिङ्प्रत्ययः अस्ति. ति इत्युक्ते तिङ्प्रत्ययः लकारं बोधयति, वयं पठितवन्तः, तेन चुर् योगः ई योगः आ योगः ति, एतादृशं रूपं सिध्यति. तत्र चुर् प्रथमतया चोर् भवति, तदनन्तरम् इकारस्य योजनेन चोरि भवति. चोरि इति तत्र नूतनधातुः, नूतनधातुः इत्युक्ते तस्य नाम आतिदेशिकधातुः इत्युक्ते औपदेशिकधातुः नास्ति, उपदेशावस्थायां नास्ति, इत्युक्ते पाणिनिना उपदिष्टः धातुः नास्ति. चुर् इति उपदिष्टधातुः, औपदेशिकधातुः चुर्, किन्तु नूतनधातुः अथवा आतिदेशिकधातुः चोरि इति रूप धातुः सिध्यति. तत्र सनाद्यन्ताधातवः इति एकं सूत्रमस्ति, संज्ञासूत्रं, तेन सूत्रेण अस्य धातोः धातुसंज्ञा दीयते. इत्युक्ते णिच् इति सनादिप्रत्ययेषु अन्यतमप्रत्ययः णिच् इति कृत्वा तत्र सनाद्यन्ताधातवः इति सूत्रेण चोरि इति नूतनधातोः धातुसंज्ञा दीयते इति मुख्यविषयः. चोरि इत्यस्मात् चोरियोगः आ अस्ति खलु, चोरियोगः आयोगः ति, अन्ततो गत्वा तत्र कानिचन सोपानानि सन्ति. इत्युक्ते तत्र यचोयवायावः इति एकं सूत्रमस्ति, तेन सूत्रेण यान्तवान्तादेशसन्धिः अपि भवति. अन्यानि बहूनि कार्याणि सन्ति, सार्वधातुकार्धधातुकयोः इति एकं सूत्रमस्ति. एतेषां विशिष्टसूत्राणां द्वारा चुर् धातुतः अन्तिमं रूपं चोरयति इति रूपं सिध्यति. अत्र संक्षेपरूपेण स्मर्तुमिच्छामश्चेत् अत्र कीदृशपरिशीलनं भवेत् अस्मिन् गणे इत्युक्ते, साधारणतया अस्मिन् गणे क्रियापदेषु अय इति श्रूयते, अय इति अस्य गणस्य लक्षणम्। इत्युक्ते क्रियापदे अय इति रूपं मध्ये श्रूयते। पश्यन्तु क्रियापदानि पश्यन्तु, अत्र चुरादिगणीयक्रियापदानि पश्यन्तु, क्षालयति इति पश्यामश्चेत् क्षालयति अय, अय इति श्रूयते, प्रेषयति, कथयति, चिन्तयति इति रूपाणि। अत्र क्षालयति इति पदं स्वीकुर्मः चेत् धातुः क्षल् धातुः, तत्र दीर्घत्वं नास्ति, लौकिकधातुः क्षल्, किन्तु लौकिकधातुतः नूतनधातुः अथवा आतिदेशिकधातुः क्षालि इति आयाति णिच् योजनेन। चुरादिगणे स्वार्धे अपि णिच् विधीयते, तत्र क्षालि इति आतिदेशिकधातुः। तदनन्तरं शप् इत्यस्मात् आयति, तदनन्तरम् अन्ते तिङ् प्रत्ययः अस्ति, क्षालयति इति अन्तिमं रूपं तादृशरीत्या सिद्ध्यति। तथा एव गण् योगः अययोगः ति गणयति, प्रेष् योगः अययोगः ति प्रेषयति, कद् योगः अय अययोगः ति कथयति, चिन्त् योगः अययोगः ति चिन्तयति। इत्युक्ते एतावता अस्मिन् गणे अय इति श्रूयते इति मुख्यविषयः। चुरादिगणे स्वार्थे प्रेरणार्थे णिच् विधीयते इति मुख्यविषयः। णिच् प्रेरणार्थगणिच् अन्येषु गणेषु केवलं प्रेरणार्थे एव विधीयते। उदाहरणार्थं पठ् धातुः अस्ति, पठ् धातुतः, पठ् धातुः चुरादिगणीयधातुः नास्ति, पठ् धातुः पठ् धातुतः लट्लकाररूपं, साधारणलट्लकाररूपं पठति, किन्तु पठ् धातुतः प्रेरणार्थे णिच् योजनेन पाठि इति नूतनधातुः आतिदेशिकधातुः सिद्धः भवति। पाठि इत्यस्मात् पाठयति इति रूपं सिद्ध्यति। इत्युक्ते एतावता स्मर्तव्यः विषयः कः, अत्र अन्येषु गणेषु प्रेरणार्थे एव णिच् विधीयते। यथा अन्यानि रूपाणि, दा धातोः रूपं साधारण लट् रूपं ददाति, किन्तु निजन्तरूपं दापयति, गम् धातुतः गमयति, पठ् धातुतः पाठयति इत्यादीनि रूपाणि प्रेरणार्थे। इत्युक्ते तस्य अर्थः भिन्नः, प्रेरणार्थगणिच् योजनेन अन्येषु गणेषु रूपाणि सिद्ध्यन्ति, किन्तु चुरादिगणे स्वार्थे अपि णिच् विधीयते। णिच् इत्यस्मात् इकारः तत्र अवशिष्यते अनुबन्धलोपानन्तरं। चुरादिगणे स्वार्थे णिच् विधीयते इति मया उक्तं, स्वार्थे णिच् विधीयते चेदपि धातोः यः अर्थः अस्ति सः एव अर्थः तत्र तिष्ठति। इत्युक्ते धातोः अर्थ णिच् योजनेन अपि केवलम् अर्थपोषणमेव भवति, भिन्न अर्थः न दृश्यते तत्र। इत्युक्ते चुरादिगणे स्वार्थे णिच् योजनेन अपि णिच् योजनेन भिन्न अर्थः न आयाति, केवलं धातोः यः अर्थः अस्ति तस्य अर्थस्य पोषणं भवति तावदेव। इत्युक्ते चुरादिगणे स्वार्थे चोरयति, प्रेरणार्थे अपि चोरयति। इत्युक्ते रूपम् एकमेव रूपम् अस्ति, स्वार्थे प्रेरणार्थे एकमेव रूपं, किन्तु वाक्येषु चोरयति इति पदं पश्यामश्चेत् कथं ज्ञातुं शक्नुमः, स्वार्थे अस्ति वा प्रेरणार्थे अस्ति वा, कथं ज्ञायते अस्माभिः? इत्युक्ते तत्र केवलं सन्दर्भम् अनुसृत्य तस्मिन् वाक्ये अन्यानि पदानि दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः। एतावता चुरादिगणे अय इति रूपं विकरणप्रत्ययात् आगतः अकारः अस्ति, अपि च णिच् इत्यस्मात् आगतः इकारः अस्ति। इकार अकारयोः मेलनेन इति न वदामः, इकारः योगः अकारः मध्ये आयाति, अन्ते तिङ्प्रत्ययः अस्ति, आरम्भे धातुः अस्ति, चुर्योगः ईयोगः आयोगः ति आहत्य अय इति श्रूयते अस्मिन् गणे। तत्र क्रियापदानि पश्यन्तु, प्रेषयति, कथयति, चिन्तयति, गणयति, क्षालयति इत्यादीनि रूपाणि सन्ति। दशमगणपर्यन्तम् अहं किञ्चित् उक्तवती. अत्र अवगन्तव्यः विषयः कः इत्युक्ते, प्रत्येकं गणस्य एकं मुख्यलक्षणमस्ति. प्रत्येकस्मिन् गणे भिन्नविकरणप्रत्ययः अस्ति, अथवा प्रत्येकं गणस्य लक्षणमस्ति, अथवा प्रत्येकं गणस्य असाधारणधर्मः अस्ति. एतेषां लक्षणानाम् आधारेण, एतानि लक्षणानि अवलम्ब्य, आधारीकृत्य वयम् अग्रिमे सप्ताहे अभ्यासं कुर्मः. दशानां धातुगणानां प्रसङ्गे किञ्चित् स्थालीपुलाकन्यायेन, इत्युक्ते स्थूलरीत्या किञ्चित् वक्तुं प्रयत्नं कृतवती. अग्रिमे सप्ताहे वयं प्रत्येकं विकरणप्रत्ययस्य मूलरूपं किम्, अनुबन्धवर्णाः के, विकरणप्रत्ययस्य आकृतिः का इति तत्र द्वितीये करपत्रे इतोपि स्पष्टतया दत्तमस्ति. सर्वे द्वितीयं करपत्रम् एकवारं पठन्तु. कः धातुः कस्मिन् गणे स्थापनीयः, तस्मिन् सन्दर्भे कुत्र कुत्र भ्रमः भवति, कुत्र कुत्र भ्रमः जायते, अथवा कयोः कयोः गणयोः मध्ये तादृशः भ्रमः जायते, अथवा भ्रमात्मकस्थलानि कानि, कयोः कयोः गणयोः मध्ये भ्रमः भवति धातूनां प्रसङ्गे, एतत् सर्वं चिन्तयिष्यामः. द्वितीयं करपत्रम् एकवारं पठन्तु आगमनात् पूर्वमेव.
एकं भ्रमम् अस्ति.
भ्रमः महोदय वदतु.
तुलादिगणस्य चर्चा मध्ये भगिनी अतिव्यापी शब्दः प्रयोजनं कुर्वतु. तदस्य अर्थं अर्थम् अतिव्यापिदोषः. यु टोल्ड् अबौट् देट् अतिव्यापिदोषः. यु टोल्ड् अबौट् वैल् डिस्कसिङ्ग् तुदादिगणः. वट् इस् दट् दोषः, अतिव्यापिदोषः
इत्युक्ते, तत्र कः धातुः अस्ति चेत् सः धातुः भुवादिगणे स्थापनीयः वा, नो चेत् तुदादिगणे स्थापनीयः वा इति तत्र प्रश्नः उदेति. तत्र तुदादिगणे भुवादिगणे द्वयोः गणयोः विकरणप्रत्ययात् आगतः अवशिष्टभागः आ एव दृश्यते. द्वयोः गणयोः आ एव दृश्यते चेत् किमर्थं धातुगणद्वयं स्थापितमस्ति तस्मिन् प्रसङ्गे? अतिव्याप्तिदोषः भवति. इत्युक्ते एकमेव लक्षणं बहुत्र दृश्यते चेत् तत्र अतिव्याप्तिः इति वदामः. एकस्य गणस्य लक्षणं तस्मिन् गणे एव भवतु, अन्यत्र तादृशं लक्षणम् अन्यत्र न लभ्यते. इत्युक्ते तस्य गणस्य असाधारणधर्मः तदेव. इत्युक्ते तादृशं लक्षणम् अन्येषु गणेषु मा भवेत् इति पाणिनेः आशयः.
भगिनी एकः प्रश्नः अस्ति. भगिनी
प्रश्नः उपधाया अर्थं कः?
वयं पठिष्यामः महोदय. एका संज्ञा
धनादिगणे कृ धातुः अस्ति, करोति इति भवति. तृ इति धातुः अस्ति, तत्र तृ तर् इति न परिवर्तितं, तृ कर् इति परिवर्तितमस्ति.
आं महोदय, तत्र कारणानि सन्ति. इत्युक्ते प्रत्येकं गणस्य अध्ययनं भवति तस्मिन् प्रसङ्गे, इतोपि विस्तरेण पठिष्यामः. अद्यतनविषयः तु केवलं प्रत्येकस्मिन् गणे विकरणप्रत्ययः कः इति एव अद्यतनकरपत्रे दत्तमस्ति
इति अस्ति किल. कृषधातु कृषति इति, कर्षति इत्यपि रूपं श्रूयते.
अहम् उक्तवती, इत्युक्ते तत्र कृष् धातुः अस्ति. कृष् धातुतः भुवादिगणे गुणकार्यं भवति. किमर्थं गुणकार्यम् इत्युक्ते शप् इति विकरणप्रत्ययः अस्ति. शप् विकरणप्रत्ययः षित् अस्ति, पित् अस्ति. षित्वम् अस्ति, पित्वम् अस्ति इति कृत्वा तत्र गुणः सम्भवति. गुणः सम्भवति इति कृत्वा भुवादिगणे शपं निमित्तीकृत्य तत्र अङ्गकार्यं भवति इति कृत्वा कृष् धातुतः कर्ष् इति क्रु इत्यस्य गुणसंज्ञकवर्णः अर् इति आयाति. तत्र वरुणरपरः इत्यपि भवति, तेन कर्ष् कर्ष् इति रूपं, कर्षति इति रूपं. तुदादिगणे कृष् धातोः रूपं कृषति एव. किमर्थं चेत् तुदादिगणे शप् नास्ति, शा अस्ति. इत्युक्ते शित्वम शित् प्रत्ययः, किन्तु अपित् अपित् अस्ति इति कारणतः. अपित् अस्ति चेत् गुणवृद्धि न भवति इति विषयः. तत्र एकं सूत्रमस्ति, ईको गुणवृद्धि इति एकं सूत्रमस्ति. इत्युक्ते शित् अस्ति, षित् अपि च पित् अस्ति चेदेव गुणः भवति. एते सर्वे अनुबन्धवर्णाः किमर्थम् आयान्ति, एतत् सर्वं किमर्थम् इत्युक्ते तत्र प्रत्येकं कारणमस्ति. षित् इत्युक्ते किं, पित् इत्युक्ते किं, पित्वं शप् इत्युक्ते किम्, एतत् सर्वं वयं विस्तरेण पठिष्यामः. आहत्य अवगन्तव्यः विषयः अस्ति तुदादिगणे गुणकार्यं न भवति, भुवादिगणे गुणकार्यं भवति इति कृत्वा कृष् धातोः रूपं कर्षति, किन्तु तुदादिगणे कृषति.
पठति पठति खादति इत्यादीनां भुवादिगणे
गुणकार्यं न भवति,
गुणकार्यं न भवति, तर्हि ते भुवादिगणे किमर्थं सन्ति?
तत्र भुवादिगणे सन्ति इति केवलं भुवादिगणे धातुः अस्ति चेदपि अस्ति चेत् सर्वत्र इत्युक्ते सर्वेषु धातुषु गुणः भवति इति न. इत्युक्ते तत्र धातौ आनुकूल्यं भवेत्, सः धातुः भुवादिगणे अपि भवेत्. इत्युक्ते धातौ आनुकूल्यं भवेत्, आनुकूल्यम् इत्युक्ते धातुः इगन्तधातुः, इत्युक्ते धातोः अन्ते इक् वर्णः स्यात्. इत्युक्ते इक् इति एकः प्रत्याहारः. यदि भवन्तः माहेश्वराणि सूत्राणि जानन्ति चेत् तत्र इक् इति एकः प्रत्याहारः. इत्युक्ते धातोः अन्ते इक् प्रत्याहारस्थवर्णः, दीर्घवर्णः वा भवतु ह्रस्ववर्णः वा भवतु, इगन्तधातुः अस्ति चेत् तदा सः धातुः न केवलम् इगन्तधातुः, भुवादिगणि अपि भुवादिगणीयधातुः इगन्तधातुः अस्ति चेदेव गुणकार्यं भवति. अथवा भुवादिगणीयधातोः उपधायां ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः अस्ति चेदेव भुवादिगणीयधातुषु गुणकार्यं भवति. पठ् इति स्वीकुर्मः चेत् पठ् धातुः इगन्तधातुः नास्ति, पठ् धातौ उपधायां ह्रस्व इक् वर्णः नास्ति इति कृत्वा यद्यपि पठ् धातुः भुवादिगणे अस्ति चेदपि तत्र गुणकार्यं न भवति. यदि भुवादिगणे धातून् पश्यति चेत् भवति पठ् धातुः अपि अस्ति, शुच् धातुः अपि अस्ति तस्मिन् गणे. इत्युक्ते भुवादिगणे केषुचित् धातुषु गुणकार्यं भवति, यत्र यत्र आनुकूल्यमस्ति धातौ, इत्युक्ते धातुः इगन्तः अथवा इदुपध उदुपध रुदुपध धातुः अस्ति चेदैव गुणकार्यं भवति. भुवादिगणे अस्ति चेदपि तादृशम् आनुकूल्यं शुच् धातौ अस्ति इति कृत्वा शुच् शोच् भवति, किन्तु पठ् पठति एव भवति. इत्युक्ते अहं बहूनि पारिभाषिकपदानि उक्तवती, इत्युक्ते ऐ यूस् लाट् आफ् टेक्निकल् टर्म्स्, बट् वी केन् मास्टर् आल् दोस् वर्ड्स् ओवर् ए पीरियड् आफ् टैम्, तत्र चिन्ता मास्तु.
भगिनी प्रश्नः अस्ति.
धन्यवादः भगिनी.
विकर्णप्रत्ययः असाधारण धर्मः इति उक्तं, तर्हि साधारणधर्मः इति किमपि अस्ति वा?
साधारणधर्मः इत्युक्ते अत्र साधारणधर्मः प्रत्येकस्मिन् गणे आरम्भे शप् आयाति. शप् इति साधारणतया औच्छर्गिकरूपेण सामान्यतया प्रथमतया शप् आयाति, किन्तु केषुचित् गणेषु शप् विकरणप्रत्ययं बाधित्वा अन्येषां सूत्राणां द्वारा अन्यः विकरणप्रत्ययः तत्र आयाति.
भगिनी दशमगणे केवल चुर् क्षल् च एतेषाम् उपधा दीर्घं किमर्थं भवति?
तत्सर्वं वयं पठिष्यामः भगिनी, चुरादिगणीयप्रसङ्गे पठिष्यामः. वयं क्रमशः ज्ञास्यामः, क्रमशः गच्छामः, अग्रे गत्वा विस्तरेण पठिष्यामः. अधुना एतावत् पर्याप्तम् अस्माकं कृते. भवन्तः सर्वे एकवारं इदं करपत्रं पुनः एकवारं पठन्तु, तेन इतोपि सम्यक् अवगमनं भवति.
अनेके धन्यवादाः.
बहु सम्यक् आसीत् दक्षा भगिनी.
इत्युक्ते समयः अस्ति चेत् ध्वनिमुद्रणं शृण्वन्तु. ध्वनिमुद्रणं. धन्यवादः.